Saram dear listeners, and welcome back to the studios of Radio Sai Prashantaralayam, giving you live broadcast every Thursday in the Asia stream of Radio Sai. As the proceedings in the Sai Kulwant Hall have ended just now, it's now time for us to get back to the studios of Radio Sai to continue with the evening session of this Thursday's Radio Sai live program. And this is Team Radio Sai's Ganesh inviting you all to yet another new session of the Radio Sai Vedam Tutor. And without any further delay, we shall get into the class. But for a change, today we have Brother Shyam Kumar from Tamil Nadu State Vedam Coordinator. And he has completed his education from Bhagwan's University and now working in Chennai. And he has been actively teaching Vedic mantras to Bal Vikas children and also many of the youth. And the best thing is, he still learns Vedas from his Guruji. And today we have Shri Shyam Kumar teaching us a new suktam, which is called the Akshibhyam Te Suktam. So without any further delay, over to Brother Shyam Kumar for the Akshibhyam Te Suktam.
Harihi Om. Gananantva Ganapati Vum Havamahe Kavinka Vinamu Pamashravastamam Jeshtharajam Brahmanam Brahmanaspatana Shrunvan Nutibhissi Dasadanam Prano Devi Saraswati Vaje Bhirvajini Vati Dhinama Vitrayavatu Ganeshaya Namaha Saraswati Namaha Shri Gurubhyo Namaha Harihi Om. Akshibhyante
Akshibhyante Akshibhyante
Nasikabhyam
Nasikabhyam Nasikabhyam
Karnaabhyam
Karnaabhyam Karnaabhyam
Chubukadadhi
Chubukadadhi Chubukadadhi
Yakshmam
Yakshmam Yakshmam
Shirshanyam
Shirshanyam Shirshanyam
Mastishkaat
Mastishkaat
Mastish, it is mastish, it is not mastish. Okay. Mastishkaat
Mastishkaat Mastishkaat
Jihvaya
Jihvaya Jihvaya
Vivrahamite
Vivrahamite Vivrahamite
Akshibhyante Nasikabhyam
Akshibhyante Nasikabhyam Akshibhyante Nasikabhyam
Nasikabhyam Karnaabhyam
Nasikabhyam Karnaabhyam Nasikabhyam Karnaabhyam
Karnaabhyam Chubukadadhi
Karnaabhyam Chubukadadhi Karnaabhyam Chubukadadhi
Akshibhyante Nasikabhyam Karnaabhyam Chubukadadhi
Akshibhyante Nasikabhyam Karnaabhyam Chubukadadhi Akshibhyante Nasikabhyam Karnaabhyam Chubukadadhi
Yakshmam Shirshanyam
యక్ష్మం శీర్షన్యం యక్ష్మం శీర్షన్యం
శీర్షన్యం మస్తిష్కాత్
శీర్షన్యం మస్తిష్కాత్ శీర్షన్యం మస్తిష్కాత్
మస్తిష్కా జిహ్వాయ
మస్తిష్కా జిహ్వాయ మస్తిష్కా జిహ్వాయ
జిహ్వాయ వివృహామి
జిహ్వాయ వివృహామి జిహ్వాయ వివృహామి
మస్తిష్కా జిహ్వాయ వివృహామి
మస్తిష్కా జిహ్వాయ వివృహామి మస్తిష్కా జిహ్వాయ వివృహామి
యక్ష్మం శీర్షణ్యం మస్తిష్కా జిహ్వాయ వివృహామి
యక్ష్మం శీర్షణ్యం మస్తిష్కా జిహ్వాయ వివృహామి యక్ష్మం శీర్షణ్యం మస్తిష్కా జిహ్వాయ వివృహామి
గ్రీవాభ్యస్త
గ్రీవాభ్యస్త గ్రీవాభ్యస్త
ఉష్ణీహాభ్యః
ఉష్ణీహాభ్యః ఉష్ణీహాభ్యః
కీకసాభ్యో
కీకసాభ్యో కీకసాభ్యో
అనూక్యాత్
అనూక్యాత్ అనూక్యాత్
అనూక్యాత్
అనూక్యాత్ అనూక్యాత్
యక్ష్మం
యక్ష్మం యక్ష్మం
దోషణ్య
దోషణ్య దోషణ్య
అమంసాభ్యాం
అమంసాభ్యాం అమంసాభ్యాం
బాహుభ్యాం
బాహుభ్యాం బాహుభ్యాం
వివృహామి
వివృహామి వివృహామి
గ్రీవాభ్యస్త
గ్రీవాభ్యస్త
ఉష్ణీహాభ్యః
ఉష్ణీహాభ్యః
గ్రీవాభ్యస్త ఉష్ణీహాభ్యః
గ్రీవాభ్యస్త ఉష్ణీహాభ్యః
గ్రీవాభ్యస్త ఉష్ణీహాభ్యః
గ్రీవాభ్యస్త ఉష్ణీహాభ్యః గ్రీవాభ్యస్త ఉష్ణీహాభ్యః
ఉష్ణీహాభ్యః కీకసాభ్యో
ఉష్ణీహాభ్యః కీకసాభ్యో ఉష్ణీహాభ్యః కీకసాభ్యో
కీకసాభ్యో అనూక్యాత్
కీకసాభ్యో అనూక్యాత్ కీకసాభ్యో అనూక్యాత్
యక్ష్మం దోషణ్య అమంసాభ్యాం
యక్ష్మం దోషణ్యమం
Yakshmam doshanya.
Yakshmam doshanya.
Doshanya amamsabhyam.
Doshanya amamsabhyam.
Doshanya amamsabhyam.
Doshanya amamsabhyam.
Doshanya amamsabhyam.
Doshanya amamsabhyam. Doshanya amamsabhyam.
Yakshmam doshanya amamsabhyam.
Yakshmam doshanya amamsabhyam. Yakshmam doshanya amamsabhyam.
Amamsabhyam bahubhyam vivrahamite.
Amamsabhyam bahubhyam vivrahamite. Amamsabhyam bahubhyam vivrahamite.
Grivabhyasta ushniha abhyah kikasabhyo anukyat.
Grivabhyasta ushniha abhyah kikasabhyo anukyat. Grivabhyasta ushniha abhyah kikasabhyo anukyat.
Yakshmam doshanya amamsabhyam bahubhyam vivrahamite.
Yakshmam doshanya amamsabhyam bahubhyam vivrahamite.
Yakshmam doshanya amamsabhyam bahubhyam vivrahamite.
Yakshmam doshanya amamsabhyam bahubhyam vivrahamite. Yakshmam doshanya amamsabhyam bahubhyam vivrahamite.
Antrebhyaste.
Antrebhyaste. Antrebhyaste.
Gudabhyo.
Gudabhyo. Gudabhyo.
Vanishtho.
Vanishtho. Vanishtho.
Hridayadadhi.
Hridayadadhi. Hridayadadhi.
Yakshmam matasnabhyam.
Yakshmam matasnabhyam. Yakshmam matasnabhyam.
Yaknaf plashibhyo.
Yaknaf plashibhyo. Yaknaf plashibhyo.
Vivrahamite.
Vivrahamite. Vivrahamite.
Antrebhyaste gudabhyo.
Antrebhyaste gudabhyo. Antrebhyaste gudabhyo.
Gudabhyo vanishtho.
Gudabhyo vanishtho. Gudabhyo vanishtho.
Vanishthor hridayadadhi.
Vanishthor hridayadadhi. Vanishthor hridayadadhi.
Antrebhyaste gudabhyo vanishtho.
Antrebhyaste gudabhyo vanishtho. Antrebhyaste gudabhyo vanishtho.
गुदाभ्योपनिष्ठोर्हृदयादधि आन्त्रेभ्यस्ते गुदाभ्योपनिष्ठोर्हृदयादधि यक्ष्मं मतस्नाभ्यां यक्नः यक्नः प्लाशिभ्यो विवृहामि ते यक्ष्मं मतस्नाभ्यां यक्नः प्लाशिभ्यो विवृहामि ते ऊरुभ्यान्ते अष्ठीवद्भ्याम् पार्ष्णिभ्याम् प्रपादाभ्याम् यक्ष्मं श्रोणिभ्याम् भासदाद् भंससो विवृहामि ते ऊरुभ्यान्ते अष्ठीवद्भ्याम् अष्ठीवद्भ्याम् अष्टीवद्भ्याम् पार्ष्णिभ्याम् ऊरुभ्यान्ते अष्टीवद्भ्याम् पार्ष्णिभ्याम् प्रपदाभ्याम् ऊरुभ्यान्ते अष्टीवद्भ्याम् पार्ष्णिभ्याम् प्रपदाभ्याम् यक्ष्मं श्रोणिभ्यां भासदाद्
भासदाद्भंस सो विवृहामि ते
भासदाद्भंस सो विवृहामि ते
भासदाद्भंस सो विवृहामि ते
भासदाद्भंस सो विवृहामि ते
यक्ष्मं श्रोणिभ्यां वासदाद्भंस सो विवृहामि ते
यक्ष्मं श्रोणिभ्यां वासदाद्भंस सो
यक्ष्मं श्रोणिभ्यां भासदाद्भंस सो विवृहामि ते
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 भासदाद्भंस सो
भासदाद्भंस सो
भासदाद्भंस सो
सिंस दिस इज अ ऋग्वेद मंत्रम Certain letters would be elongated. For example, since beginning we have been seeing every alternate line, it is actually written as Vivrihamite. We are chanting it as Vivrihamite. So we are slightly elongating that particular letter. So because it is not possible to notate it, we generally represent it with a dot on top. So, if you see this particular word that we are chanting, Bhasadad, Sa has a dot on top. It should not be chanted as Sa, but Sa slightly elongated. That's why it is Bhasadad Bhamsa So Vivrihamite.
Bhasadad Bhamsa So Vivrihamite. भासदाद्भंस सो विवृहामि ते
यक्ष्मं श्रोणिभ्यां भासदाद्भंस सो विवृहामि ते
यक्ष्मं श्रोणिभ्यां भासदाद्भंस सो विवृहामि ते
यक्ष्मं श्रोणिभ्यां भासदाद्भंस सो विवृहामि ते
मेहनाद्वनम्
मेहनाद्वनम् मेहनाद्वनम्
करणात्
करणात् करणात्
लोमभ्यस्ते
लोमभ्यस्ते लोमभ्यस्ते
नखेभ्यः
नखेभ्यः नखेभ्यः
यक्ष्मम्
यक्ष्मम् यक्ष्मम्
सर्वस्मात्
सर्वस्मात् सर्वस्मात्
आत्मनस्तमिदम्
आत्मनमस्तमिदम्
आत्मनस्तम्
आत्मनस्तम् आत्मनस्तम्
तमिदम् विवृहामि ते
तमिदम् विवृहामि ते तमिदम् विवृहामि ते
मेहनाद्वनम् करणात्
मेहनाद्वनम् करणात् मेहनाद्वनम् करणात्
करणाल्लोमभ्यस्ते
करणाल्लोमभ्यस्ते करणाल्लोमभ्यस्ते
लोमभ्यस्ते नखेभ्यः
लोमभ्यस्ते नखेभ्यः लोमभ्यस्ते नखेभ्यः
करणाल्लोमभ्यस्ते नखेभ्यः
करणाल्लोमभ्यस्ते नखेभ्यः करणाल्लोमभ्यस्ते नखेभ्यः
मेहनाद्वनं करणात्
मेहनाद्वनं करणात् मेहनाद्वनं करणात्
मेहनाद्वनं करणाल्लोमभ्यस्ते नखेभ्यः
मेहनाद्वनं करणाल्लोमभ्यस्ते नखेभ्यः मेहनाद्वनं करणाल्लोमभ्यस्ते नखेभ्यः
यक्ष्मं सर्वस्मादात्मनः
यक्ष्मं सर्वस्मादात्मनः यक्ष्मं सर्वस्मादात्मनः
आत्मनस्तमिदम्
आत्मनस्तमिदम् आत्मनस्तमिदम्
तमिदं विवृहामि ते
तमिदं विवृहामि ते तमिदं विवृहामि ते
आत्मनस्तमिदं विवृहामि ते
आत्मनस्तमिदं विवृहामि ते आत्मनस्तमिदं विवृहामि ते
यक्ष्मं सर्वस्मादात्मनस्तमिदं विवृहामि ते
यक्ष्मं सर्वस्मादात्मनस्तमिदं विवृहामि ते यक्ष्मं सर्वस्मादात्मनस्तमिदं विवृहामि ते
अङ्गादङ्गात्
अङ्गादङ्गात् अङ्गादङ्गात्
लोम्नो लोम्नो
लोम्नो लोम्नो लोम्नो लोम्नो
जातं पर्वणि
जातं पर्वणि जातं पर्वणि
पर्वणि पर्वणि
पर्वणि पर्वणि पर्वणि पर्वणि
अङ्गादङ्गाल्लोम्नो लोम्नो
अङ्गादङ्गाल्लोम्नो लोम्नो
अङ्गादङ्गाल्लोम्नो लोम्नो
अङ्गादङ्गाल्लोम्नो लोम्नो अङ्गादङ्गाल्लोम्नो लोम्नो
जातं पर्वणि पर्वणि
जातं पर्वणि पर्वणि जातं पर्वणि पर्वणि
अङ्गादङ्गाल्लोम्नो लोम्नो जातं पर्वणि पर्वणि
अङ्गादङ्गाल्लोम्नो लोम्नो जातं पर्वणि पर्वणि अङ्गादङ्गाल्लोम्नो लोम्नो जातं पर्वणि पर्वणि अङ्गादङ्गाल्लोम्नो लोम्नो जातं पर्वणि पर्वणि
यक्ष्मं सर्वस्मादात्मनस्तमिदं विवृहामि ते
यक्ष्मं सर्वस्मादात्मनस्तमिदं विवृहामि ते यक्ष्मं सर्वस्मादात्मनस्तमिदं विवृहामि ते
ॐ शान्ति शान्ति शान्तिः।
यदक्षरः परभ्रष्टम् मात्राहीनम् तु यद्भवेत् तत्सर्वम् क्षम्यताम् देवा नारायण नमोऽस्तु ते। विसर्गबिन्दुमात्राणि पदपादाक्षराणि च न्यूनानि चातिरिक्तानि क्षमस्व स ईश्वरा। अपराधसहस्राणि क्रियन्ते हर्निषन्मया दासोऽयमिति माम् मत्वा क्षमस्व स ईश्वरा। अन्यथा शरणम् नास्ति त्वमेव शरणम् मम तस्मात् कारुण्यभावेन रक्ष रक्ष साईश्वरा। हरिः ओम् सत्सत् श्री साईश्वरार्पणमस्तु।
With this, we come to an end to this week's Radio Sai Vedam Tutor. In the coming class, we shall take up one more new mantram as the winter vacations are on in Prashanti Nilayam. And after Praveena sir returns from the vacation, we shall continue with the Arunaprashna mantram. It's now time for us to go to the next segment of this Thursday Live Radio Sai Bhajan Classroom, hosted by Brother Bishu. Over to Brother Bishu without any further delay. Sai Ram and happy listening.